इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन आगामी दशवर्षेभ्यः चत्वारिंशदधिक अष्टशतोत्तर अष्टाविंशति सहस्र कोटि रूप्यकाणां व्ययेन संशोधित उड़ान इति क्षेत्रीय सम्पर्क योजनायाः विस्तारः स्वीकृतः। अस्य निर्णयस्य विषये वार्ताहरान् संसूचयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् क्षेत्रीय सम्पर्कं संवर्धयितुं विद्यमान अविमानपत्तनेभ्यः शत नूतनानि विमानपत्तनानि विकसितानि भविष्यन्ति इति।
उड़ान 2.0 इसमें 100 न्यू एयरपोर्ट्स को डेवलप किया जाएगा। 100 न्यू एयरपोर्ट्स को चैलेंज मोड में डेवलप किया जाएगा। राज्य सरकारों को ये चैलेंज दिया जाएगा कि आप लोग प्रायोरिटी डिसाइड करो कहाँ पे एयरपोर्ट बनाना है, और लैंड से रिलेटेड, परमिशन से रिलेटेड, कहीं पर भी कोई भी इश्यू आता है वो सब आप प्रायोरिटी बेसिस पे क्लियर करो, उस एयरपोर्ट को लिया जाएगा इस प्रोजेक्ट।
प्रशासनेन ह्यः सायं नवदिल्ल्यां संसद भवन परिसरे पश्चिमैशियायाः स्थितौ सर्वदलीयोपवेशनम् आहूतम्। उपवेशनस्य अध्यक्षतां रक्षामन्त्री राजनाथ सिंहः कृतवान्, यस्मिन् गृहमन्त्री अमितशाहः, विदेशमन्त्री एस जयशंकरः, पेट्रोलियम मंत्री हरदीप पुरी, संसदीय कार्यमंत्री किरेन रिजिजू, जेडीयू इति दलस्य कार्यकार्यध्यक्षः संजय झा, राजीव रंजन सिंहः, अन्य नेतारश्च सम्मिलिताः जाताः। उपवेशनानन्तरं वार्ताहरान् सम्बोधयन् श्री रिजिजू भागग्रहीतृभ्यः सर्वेषां दलानां सदस्येभ्यः धन्यवादं प्रदत्तवान्। उक्तवान् च यत् विपक्षनेतृभिः उत्थापिताः सर्वे प्रश्नाः, सर्वाः चिन्ताः च प्रशासनेन सम्बोधिताः इति। प्रशासनेन उक्तं यत् देशे 26 कोटि टनमितस्य अशोधित तैलस्य शोधन क्षमता अस्ति इति। अतः नागरिकाः किं वदन्तिषु विश्वासः मा कुर्वन्तु, भयेन क्रयणं मा कुर्वन्तु इति। एतद् वक्तव्यं पेट्रोलियम प्राकृतिक वातेन्धन मन्त्रालयस्य संयुक्त सचिव पदासीना सुजाता शर्मा ह्यः पश्चिमैशियायां सद्यः एव जातेषु घटनाक्रमेषु आधारितस्य एकस्य अन्तः मन्त्रालयीय विवरणस्य सम्बोधने प्रदत्तवती। पत्तन पोत परिवहन जलमार्ग मन्त्रालयस्य विशेष सचिवः राजेश कुमार सिन्हा उक्तवान् यत् गतासु 24 होरासु 50 भारतीय नाविकाः भारतं प्रति आनीताः। केरलम राज्ये विधानसभा निर्वाचनेभ्यः नामांकनं प्रत्यावर्तनस्य अन्तिमः दिवसः अद्य अस्ति। एतन्मध्ये मंगलवासरे नामांकनस्य निरीक्षणं सम्पूर्णानन्तरं असम विधानसभा निर्वाचनेभ्यः अभियानं तीव्रीभूतम्। पुडुचेरी केन्द्रशासित प्रदेशे नैर्वाचनिक प्रचारः तीव्रीभूतः, अथ च प्रमुख नेतारः सर्वेषु निर्वाचन क्षेत्रेषु प्रचाराभियानं तीव्रं कृतवन्तः। भाजपा दलेन पश्चिम बंगाल विधानसभा निर्वाचनेभ्यः 29 प्रत्याशीनां एका सूची प्रख्यापिता। अवधेयास्पदं वर्तते यत् आरजीकर चिकित्सा महाविद्यालय चिकित्सालय प्रकरणे पीडितायाः माता रत्ना देवनाथः पानीहाटी विधानसभा क्षेत्रात् नैर्वाचनिक क्रीडांगणे अस्ति। नवसूच्यनुसारं रथीन्द्र नाथ बोसः कूचबिहार दक्षिण विधानसभा क्षेत्रात्, डॉ शंकर गुच्छैत मेदिनीपुरात्, विप्लव मण्डलः हावड़ा मध्य विधानसभा क्षेत्रात् क्रीडांगणे उपस्थिताः सन्ति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः रामनवम्याः अवसरे नागरिकेभ्यः शुभकामनाः प्रदत्तवती। एकस्मिन् सन्देशे एषा उक्तवती यत् भगवतः श्रीरामस्य जीवनयात्रा अस्मान् सत्यन्याय पुण्यमार्गेभ्यः प्रेरयति इति। वार्ताः
उडान 2.0 इसमें